अस्तु तर्हि अद्यतनविषयः अस्ति अष्टाध्याय्याः समग्रदृष्टिः. तत्र प्रकरणं नाम किं, प्रक्रिया नाम का इति अस्माभिः दृष्टं पूर्वम् एव. इदानीम् इतः अग्रे किञ्चित् इतोपि प्रक्रिया न प्रकरणप्रसङ्गे किञ्चित् इतोपि द्रक्ष्यामः. अनन्तरं ततः अग्रे तत्र अष्टाध्याय्यां किं किमस्ति नाम मानचित्रस्य अवलोकनं भविष्यति. गतसप्ताहे तत्र प्रकरणप्रसङ्गे केचन प्रश्नाः आगताः आसन्. तत्र प्रथमतया सर्वे पश्यन्तु तत्र प्रकरणभागे यत्र इत्संज्ञाप्रकरणं दत्तमस्ति, तत्र मया किञ्चित् शोधकार्यं कृतम् अस्मिन् विषये, यतोहि प्रश्नः आगतः आसीत् गतसप्ताहे यत् किमर्थं कुत्रचित् उपदेशे इति अनुवृत्तिः भवति, कुत्रचित् अन्यत्र उपदेशे इति अनुवृत्तिः न भवति. वस्तुतः तत्र एकं मनसि भवेत् इदं यत् पाणिनिः अष्टाध्यायीं विरचितवान्, अपि च टीका पाणिना न दत्ता, साक्षात् ग्रन्थं दत्तवान्. अनन्तरं गच्छता कालेन शनैः टीकाकाराः स्वस्य सूचनां दत्तवन्तः. अतः वस्तुतः अनुवृत्तिः कुत्र भवति इति पाणिना न उक्तम्. अतः ये बहु अधिकं जानन्ति ते अनुमानं कृत्वा, तर्कसहित अनुमानं कृत्वा तत्र निष्कर्षं ददति. तर्हि अत्र भिन्नभिन्नग्रन्थेषु यदि वयं पश्यामः तत्र सर्वत्र सहमतिः नास्ति. कुत्रचित् अनुवृत्तिः किञ्चित् भिन्ना अस्ति, अन्यत्र भिन्न कुत्रचित् नाम संवादः अस्ति अस्मिन् विषये, कुत्र भवेत् विवादः अपि भवति. अस्तु, किन्तु अत्र एकः निष्कर्षः आगतः अस्ति. अत्र प्रकरणं सर्वेषां पुरतः स्यात्, ततः अग्रे नाम इत्संज्ञाप्रकरणं, ततः अग्रे एकः नूतनभागः आयोजितः अस्ति. तत्र नवसूत्राणि सन्ति, अपि च लिखितमस्ति किं सूत्रपर्यन्तं स्थूलक्षराणाम् अनुवृत्तिः इति दत्तमस्ति. प्रथमसूत्रमस्ति भुवादयो धातवः इति धातुविधायकं तत्र संज्ञासूत्रमस्ति. नाम उपदेशे ये 2000 धातवः सन्ति तेषां धातु संज्ञा भवति अनेन सूत्रेण. अपि च इदं सूत्रम् अधिकारसूत्रमस्ति, नाम धातवः तत्र 93 पर्यन्तं तस्य अधिकारः भवति. इदानीं यत्र अधिकारः भवति, अधिकारसूत्रं यत्र कुत्रापि भवति, सर्वेषु सूत्रेषु तस्य आगमनं भवति इति नास्ति, कुत्रचित् प्रसङ्गः एव नास्ति. उदाहरणार्थम् अत्र भुवादयो धातवः इति, तत्र धातवः इत्यस्य अनुवृत्तिः सर्वत्र नाम अधिकारः सर्वत्र भवति इति न वा इति पश्येम. अत्र तस्य लोपः, तस्य लोपः इति सूत्रमस्ति, तस्य इतः लोपः नाम यत्र इत्संज्ञा यस्य भागस्य इत्संज्ञा भवति तस्य लोपः भवति इति अनेन सूत्रेण वयं जानीमः, अस्माकं परिचितसूत्रमस्ति खलु. अत्र धातवः इति अस्य किमपि कार्यं तत्र वा, तस्य लोपः धातवः इति वयं यदि उपविशति तस्मिन् सूत्रे तस्य किमपि कार्यमस्ति वा? कार्यं नास्ति खलु, कार्यं किमपि नास्ति. अतः तत्र बहुषु सूत्रेषु धात्वः इति इत्यस्य किमपि कार्यं नास्ति, यत्र नास्ति तत्र नागच्छति. किन्तु कुत्रचित् भवति, यथा तत्र आदिर्यटुडवः इति सूत्रं पश्यन्तु. आदिर्यटुडवः इति तत्र उपदेशे धातोः आदयः यटुडवः इतः, तर्हि तत्र कार्यमस्ति अतः आनयामः. अपि च तत्र विभक्तिपरिणामम् अपि भवति यथा प्रसङ्गं, यथा सङ्गमस्ति तत्र अत्र षष्टिः अस्ति धातोः. अस्तु, बहु समीचीनमस्ति इति एकमस्ति. इतः अग्रे पश्यन्तु, तत्र धातवः यत्र अपेक्षितमस्ति तत्र आगच्छति. अनन्तरम् उपदेशे जुनास्क इत्, उपदेशे इत् इति कुत्र कुत्र भवति. नवमसूत्रपर्यन्तं तस्य अनुवृत्तिः भवति इति उच्यते. अपि च सर्वत्र केचन टीकाकाराः वदन्ति यत् कश्चन सिद्धान्तः अस्ति, यत्र सप्तमीविभक्तौ किञ्चन पदमस्ति तत्र उपदेशे इति मास्तु इति केचन वदन्ति. अस्तु, उदाहरणार्थं पश्येम, अत्र हलन्त्यं, तत्र हलन्त्यं, तत्र सप्तमीविभक्त्यन्तं पदं किमपि नास्ति तत्र. किन्तु अग्रे नाविभक्तौ तु स्माः, अत्र विभक्तौ इति सप्तमीविभक्त्यन्तं पदमस्ति. अत्र इति प्रसङ्गः, अत्र विषयः विषयसप्तमी अस्ति. अत्र न विभक्तौ तु स्मः, विभक्तिप्रसङ्गे तत्र तत्र तु स्मः तवर्गीय सकारः मकारः च एतेषाम् अन्ते सति अपि न भवति. हलन्तीमिति सूत्रेण भवति स्म, किन्तु अत्र न भवति. न विभक्तौ, अत्र विभक्तौ. तर्हि केचन वदन्ति यत् उपदेशे अत्र मास्तु, यतोहि विभक्तौ इति उक्तमस्ति. किन्तु केचन वदन्ति यत् सर्वत्र भवतु, नाम शक्व तद्दिते पर्यन्तम्. अपि च मम चिन्तनं तत्र सौलभ्यमस्ति, सौकर्यमस्ति, स्पष्टता भवति, अतः मह्यमपि रोचते. सर्वत्र भवेत् उपदेशे, वस्तुतः उपदेशावस्थायाम् एतत् सर्वमस्ति. यत्र अनुबन्धाः सन्ति, यत्र यत्र अनुबन्धाः सन्ति तत्र तत्र उपदेश अवस्था तु अस्ति खलु, अस्ति एव खलु. अतः सर्वत्र भवतु, तर्हि न विभक्तौ तु स्मः इति तत्र अनुवृत्तिसहितसूत्रं किं भवति. अत्र उपदेशे विभक्तौ उपदेशावस्थायां यत्र विभक्तिसंज्ञा भवति, नाम सर्वत्र धातवः तत्र उपदेशावस्थायां तत्र धातवः सन्ति, आगमाः सन्ति, आदेशाः सन्ति, प्रत्ययाः सन्ति, एतत् सर्वं बहु किमपि अस्ति. किन्तु सर्वत्र न भवति. अत्र उपदेशावस्थायां यत्र विभक्तिसंज्ञा अस्ति तत्र तु स्माः न इतः इति. अनन्तरम् अग्रे सर्वत्र नाम आदिर्यटुडवः उपदेशे धातोः, पुनः तत्र केचन वक्तुं शक्नुवन्ति यत् धातोः तत्र प्रसङ्गे उपदेशे इति मास्तु, किन्तु भवतु नाम तत्र उपदेशे उपदेशावस्थायां नाम यत्र धातोः अनुबन्धः अस्ति, अनुबन्धाः यत्र उपस्थिताः तत्र उपदेशावस्थायां धातोः आदयः यटुडवः इतः. अनन्तरं तथा अग्रे अपि शः प्रत्ययस्य अत्र प्रत्ययेषु एव भवति. अत्र धातोः इत्यस्य अधिकारः किन्तु नायाति अत्र, यद्यपि अधिकारः अस्ति किन्तु नायाति अत्र, अत्र प्रसङ्गः नास्ति. नो चेत् बहवः धातवः सन्ति येषाम् आदौ षकारः मूर्धन्य षकारः अस्ति, तर्हि एवं तद् यदि उपदेशावस्थायाम् इत्यस्य अर्थः यत् सर्वे उपदेशावस्थायां यत् किमपि भवति तत्र षकारस्य लोपः भवति, तथा न इष्यते अस्माभिः इति कृत्वा अत्र धातोः इति मास्तु. किन्तु उपदेशावस्थायां प्रत्ययस्य आदिः शः इति तु स्पष्टतया दीयते. तर्हि चूटु, उपदेशावस्थायां प्रत्ययस्य आदि चूटु इतौ, नाम सर्वत्र उपदेशे 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 सर्वत्र लशक्व तद्दिते पर्यन्तं तत्र तस्य लोपः इति तत्र उपदेशे इत्यस्य किमपि कार्यं नास्ति तस्य इतः लोपः इति एव सूत्रमस्ति अत्र उपदेशे इत्यस्य कार्यं नास्ति अतः आवश्यकता नास्ति तर्हि अत्र स्पष्टता दीयते नाम उपदेशे इत् इति तत्र तस्य लोपः पर्यन्तं अनुवर्तते उपदेशे अन्तिमसूत्रे नास्ति कार्यं किन्तु तद् अतिरिच्य अतिरिच्य सर्वत्र भवति अनन्तरं हलन्तीं हलन्तीमिति केवलम् अग्रिमसूत्रपर्यन्तं न विभक्तौ तु स्मः केवलमेकसूत्रमस्ति उपदेशे अन्त्यं न क्षम्यतां तत्र उपदेशे विभक्तौ तु स्मः न इतः इति हलन्तीमपि तत्र अस्ति तत्र हल् अन्ते अस्ति चेत् अपि विभक्तौ तत्र वक्तव्यमस्ति तत्र हलन्त्यमिति लेखनीयमस्ति उपदेशे हल् अन्त्यं विभक्तौ तु स्मः न इतः इति तत्र हलन्त्यमिति आगच्छति केवलं तत्र अनन्तरं तत्र न विभक्तौ तु स्मः इत्यस्मात् सूत्रात् किमपि नास्ति आदिर्युडवः इत्यस्मात् आदि अष्टमसूत्रं पर्यन्तं नाम तत्र आदि शब्दः आगच्छति शःप्रत्ययस्य चूटु लशकृतदिते आदौ तत्र आदौ इति प्रसङ्गः अनन्तरं प्रत्ययस्य षष्ठात् सूत्रात् प्रत्ययस्य आगच्छति चूटु लशकृते तत्र प्रत्ययस्य इति एव प्रसङ्गः अतः नाम अनेन तत्र अनुवृत्तिः स्पष्टा भवति इति अहं मन्ये अस्मिन् प्रसङ्गे कोऽपि प्रश्नः वा अस्तु तर्हि इतः अग्रे श्रूयते खलु
महोदय श्रूयते वा
हा हा श्रूयते
क्षम्यता महोदय एकः प्रश्नः अस्ति भवान् तत्र उपदेशे हलन्त्यं न विभक्तौ तु स्मः इति उक्तवान् खलु तत्र हलन्त्यम् इति प्रथमा विभक्ति वा
तत्र हल् अन्त्यं तत्र अन्त्यं हल् प्रथमविभक्तौ भवति न इतः उपदेशे विभक्तौ तु स्मः अन्त्यं हल् न इतः यः अन्त्यं हल् अस्ति सः तु स्म इति चेत् तत्र न इतः सर्वं प्रथमविभक्तौ अस्ति
अस्तु तु तत्र आदेशः वा प्रथमाविभक्तिः अस्ति चेत् आदेशः आगमः नामकरणम् इति
अत्र नामकरणम् इति एव अस्ति यत् संज्ञा इति नाम भवति न वा इति प्रथमाविभक्तिः अत्र सर्वत्र नामकरणस्य वार्ता अस्ति अस्तु स्पष्टं वा अग्रे अस्तु तर्हि इति अनुवृत्तिः इति स्थितिः स्पष्टा स्यात् ततः अग्रे गते सप्ताहे तत्र प्रश्नः आसीत् यत् तत्र अपवादः अपि च निषेधकसूत्रं तत्र उभयत्र तत्र भेदः कः अत्र गते सप्ताहे उक्तं किन्तु इतः अग्रे किञ्चित् इतोपि स्पष्टतया वक्तुम् इच्छामि अत्र सरलरीत्या भवति चेत् यत्र न इति अस्ति यत्र न इति शब्दः भवति तत्र निषेधकसूत्रमस्ति न तु अपवादः अपवादः न कदापि भवति यत्र न अस्ति तत्र न इत्यनेन तस्मात् पूर्वं किञ्चित् कार्यं विधीयते तत् कार्यं निषिध्यते द्वितीयसूत्रेण अतः तत्र समानकाले इति वार्ता नास्ति नाम अपवादः कदा भवति समानस्थले समानकाले एकस्मिन्नेव समये सूत्रद्वयम् आगच्छति किन्तु अत्र एकं सूत्रमस्ति न विभक्तौ तु स्मः न विभक्तौ तु स्मः इति वदति यत् यत् हल् वर्णः अन्ते अस्ति तद् न भवति किन्तु यावत्पर्यन्तं वयं तत्र न विदद्मः नाम इत्संज्ञां, तावत्पर्यन्तं किमर्थं निषिध्येत? न भवति, न कोऽपि तर्कः अस्ति. प्रथमतया हलन्तीम् आगच्छति, अनन्तरं न विभक्तौ तु स्म आगत्य वदति यत् न, तत्र न भवति. विभक्तिप्रसङ्गे यत्र तवर्गीयवर्णः अथवा सकारः मकारः अस्ति तद् न भवति. प्रथमतया हलन्त्यम् आगच्छति, अनन्तरं निषिध्यते अनेन सूत्रेण. अत्र अपवादः नास्ति, यतोहि एकस्मिन् समये यथा ङ्यति च अपि तथा अस्ति. यावत्पर्यन्तं गुणः अथवा वृद्धिः न विधीयते तत् तावत्पर्यन्तं ङ्यति च तेषां किमपि कार्यं नास्ति. तत्र न इत्यस्य अनुवृत्तिः भवति ङ्यति च इति सूत्रे. तत्र गुणः वृद्धिः न भवति. अत्रापि न विभक्तौ तु स्मः. यत्र न अस्ति तत्र निषेधकसूत्रमस्ति, विधिसूत्रमस्ति. यत्र निषेधः अस्ति तत्र विधिः इति एव अस्ति. प्रथमतया अन्यत् सूत्रमागत्य विधिं ददाति, अनन्तरं तं विधिं निषेधयति इदं सूत्रम्. अतः निषेधकसूत्रमस्ति. इदानीम् अपवादस्य एकम् उदाहरणं ददामि. तत्र आद्गुणः वृद्धिरेचि, तत्र तत्र गुणसन्धिः वृद्धिसन्धिः च. तत्र अपि अहं योजितवान् तत्र तस्मिन् ध्वनिमुद्रणे गतसप्ताहे, किन्तु पुनः वदामि एकवारं शीघ्रमेव. अत्र आद्गुणः वदति यत् अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः भवति. अवर्णात् वर्णात् अचि परे यः कोऽपि स्वरः अस्ति तत्र यत्र तथा भवति तथा प्रसङ्गः, तत्र गुणसंज्ञकः एकादेशः भवति. अनन्तरं वृद्धिरचि किं भवति? अवर्णात् एचि परे आद्गुणः वदति अवर्णात् अचि परे, वृद्धिरचि वदति यत् अवर्णात् एचि परे. अचि परे एचि परे तत्र अच् प्रत्याहारः यः कोऽपि स्वरः, एच् प्रत्याहारः एच् प्रत्याहारे के वर्णाः सन्ति? ए ओ ऐ औ, ए ओ ऐ औ, ए ओ ऐ औ अपि स्वराः सन्ति, नाम अच् प्रत्याहारे अपि सन्ति, एच् प्रत्याहारे अपि सन्ति. अतः यत्र उदाहरणार्थं तत्र अस्तु अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः भवति इति कृत्वा आद्गुणः वृद्धिरेचि द्वयोः यत् कार्यं भवति तत्र साम्यमस्ति. केवलम् एक एव भेदः अस्ति, आद्गुणः वदति यत् अच् वर्णः परे अस्ति चेत्, वृद्धिरेचि वदति यत् एच् वर्णः परे अस्ति चेत्. तर्हि अत्र योगः एव इति पश्येम. अत्र योगः एव, अत्र इत्यस्य अन्तिमवर्णः अकारः, एचि इत्यस्य प्रथमवर्णः एकारः. तर्हि एकारः अचि अपि अस्ति, एचि अपि अस्ति इति कृत्वा आद्गुणः अपि आगच्छति, वृद्धिरचि इति अपि आगच्छति, समानस्थले समानकाले. अस्यां दशायां यदि आद्गुणः कार्यं करोति, नाम तत्र पूर्वपुरयोः तत्र गुणसंज्ञकः एकादेशः, नाम तत्र अकार एकारः अनयोः स्थाने एकारः इति गुणादेशः भवति चेत्, विधिरेचि इति सूत्रं निरवकाशं भवति. कुत्रापि नाम यत्र यत्र विधिरेचि इति सूत्रमागत्य कार्यं कर्तुम् इच्छति तत्र तत्र आद्गुणः इति कार्यम् अपि आगच्छति. यदि तस्य आद्गुणः इति सूत्रस्य कार्यं भवति तर्हि विधिरेचि इति कुत्रापि कार्यं न कर्तुं शक्ष्यति. अतः अपवादः अस्ति. अपवादः अत्र निषेधकसूत्रं नास्ति किमपि, खलु? तत्र न इति नास्ति, समानस्थले समानकाले. अत्र भेदः स्पष्टः. अग्रे गच्छेम, तत्र कोऽपि प्रश्नः वा? नाम अत्र एव इत्यनयोः स्थाने तत्र वृद्धिसंज्ञकः एकादेशः भवति, तत्र ऐ अत्रैव इति तु वयं जानीमः. तत्र वृद्धिरेचि इति कार्यं करोति, अपवादभूतसूत्रमस्ति. कोऽपि प्रश्नः? अस्तु, अन्तिमवार्ता अस्ति यत् अत्र द्वितीयप्रकरणे तत्र वयं द्वितीयप्रकरणम् अधीतवन्तः. तत्र एकः प्रश्नः आसीत् यत् पश्यन्तु अग्रे, तत्र प्रश्नः आसीत् यत् लिति लितः हा तुजादीनां दीर्घोभ्यासस्य इति सूत्रं, सप्तमं सूत्रमस्ति द्वितीयप्रकरणे. तत्र प्रश्नः, तत्र कोऽपि उदाहरणं द्रष्टुम् इष्टवान्. अत्र इदानीम् उदाहरणमस्ति, सर्वे पश्यन्तु. अत्र वस्तुतः प्रसङ्गः वेदे एव, छन्दसि वेदे एव भवति. अत्र तूज् इति इव इव धातूनाम् अभ्यासस्य स्वरः दीर्घः अस्ति. तर्हि उदाहरणमस्ति, अत्र अस्ति तूज् योगः कानच् इति कश्चन प्रत्ययः अस्ति. अत्र लिटः कानज्वा इति अनेन सूत्रेण वेदे लिटः स्थाने कानच् विकल्पेन भवति. तर्हि लिट् लकारे वेदे विकल्पेन भवति अत्र कानच्. तस्मिन् प्रसङ्गे तत्र तूज् इति धातुः अस्ति, किन्तु रूपं पश्यतु, तत्र तूज् तूतजानः तूतु जानः इति अस्ति. तत्र दीर्घकारः अस्ति अभ्यासे, तूतु जानः इति रूपम् अस्ति. तत्र वेदे एव भवति. अस्तु, तर्हि इदानीं द्वितीयप्रकरणम् अस्माभिः अधीतमस्ति. गतसप्ताहे एतावत् पर्यन्तं प्राप्तं. तत्र वयम् दृष्टवन्तः यत् तत्र मुख्यमस्ति यत् अष्टाध्याय्यां तत्र सर्वत्र प्रकरणस्य आधारे तत्र आयोजनं भवति. नाम एकः एव विषयः, अत्र द्वित्वं कथं क्रियते, एकाचो द्वे प्रथमस्य, अजादेर्द्वितीयस्य, न इन्द्राः संयोगादयः इति त्रिभिः सूत्रैः अस्माभिः ज्ञायते यत् यत्र यत्र द्वित्वमपेक्षितमस्ति तत्र तत्र कस्य द्वित्वं कथं क्रियते, कस्य वर्णस्य द्वित्वं कस्य न भवति, एतत् सर्वं दीयते. अनन्तरं प्रसङ्गः कः, पञ्चसु स्थलेषु, ज्योत्यादिगणे, लेट्लकारे, लुङ्लकारे, चङि, सनि, सनन्तप्रकरणे, तत्र यङि अपि, पञ्चसु स्थलेषु एतत् सर्वम् अग्रे तस्य तत्र अध्ययनं भविष्यति अस्माकं. नाम ज्योतिगणः, तत्र लिट्लकारः, लुङ्लकारः, सन् इदानीम् एतत् सर्वं मास्तु, केवलं पश्यन्तु यत् एतेषां सर्वेषां द्वित्वम् अस्मिन् प्रकरणे भवति, अन्यत्र कुत्रापि द्वित्वस्य प्रसङ्गः न भवति अष्टाध्याय्यां. अतः सौकर्यमस्ति यदि अष्टाध्यायीक्रमे वयं पठामः, महत्सौकर्यमस्ति. अस्तु, इतः अग्रे किञ्चित् अन्यत् उदाहरणमस्ति. अत्र ऋणत्वप्रकरणम् इति एकवारं पश्येम, अनन्तरं ततः अग्रे अष्टाध्यायी इति विषयः अस्माकम् अद्य. तर्हि ऋणत्वप्रकरणमस्ति अत्र, वेङ्कटेशमहोदय तत्र अस्ति वा महोदय?
श्रूयते वा महोदय?
हा श्रूयते. हा,
णत्वप्रकरणं रसाभ्यां नो नः समानपदे, रेपशकाराभ्यां उत्तरस्य नकारस्य नकारादेशो भवति समानपदस्थौ चेदेव निमित्त अनिमित्तिनौ भवतः पूर्णं तिसृणाम्.
उचितम्.
तत्र रेपः वा शकारः वा उत्तरस्य नकारस्य स्थाने, यतः रेपः वा शकारः वा भवति, तत्र नकारस्य स्थाने नकारादेशः भवति. तत्र समानपदस्थौ चेदेव निमित्तम् अनिमित्तिनौ भवतः इत्युक्ते तत्र निमित्तम् अस्ति चेत् तत्र केचन अपवादाः भवन्ति. तत्र निमित्तम् अस्ति चेत् नकारस्य निमित्तम् अस्ति चेत् तत्र तथापि तत्र मध्ये किमपि वर्णः नास्ति चेत् निश्चयेन तत्र न स्थाने नकारः आदेशः भवति. परन्तु अन्य कुत्रापि तत्र मध्ये कोऽपि व्यवदायिकशब्दः अस्ति चेत् तत्र नकारस्य आदेशः न भवति.
बहु समीचीनमस्ति. अत्र किमर्थं साक्षात् अनन्तरं, निमित्तं पूर्वं नैमित्तिकम् अनन्तरं साक्षात् इति चेत् तत्र एकं सूत्रमस्ति, वयम् अद्य एव द्रक्ष्यामः. यत्र पञ्चमी अस्ति अत्र रसाभ्याम् इति पञ्चमी अस्ति, तत्र साक्षात् अनन्तरम् इति स्यात्. नाम पञ्चमीविभक्तिः इति इत्यस्य को अर्थः वयं जानीमः, तत्र परकार्यमस्ति खलु. परकार्यं नाम साक्षात् परं, पञ्चवर्णानन्तरं कार्यम् इति नास्ति. यत्र पञ्चमी अस्ति साक्षात् अनन्तरम् अस्ति. अतः उदाहरणद्वयं दत्तमस्ति, पूर्णं रेफः तस्य साक्षात् अनन्तरं नकारः, तिस्रणामपि तथा अस्ति. अस्तु, ततः अग्रे गच्छेम. तत्र रेश्मी भगिनी तत्र अग्रे पठति वा? स्टार् सिक्स्.
महोदय, कुत्र पठति इति अहं
नत्वपकरणम् अट्कुप्वाङ् नुम्राइति नट्वपकरणं यत्र अस्ति तत्र द्वित्वपकरणं गते सप्ताहे वयं परिशीलितवन्तः. ततः अग्रे
एकनिमिषं
करपत्रमस्ति वा?
आम्, करपत्रमस्ति. अट्कुप्वाङ् नुं वयावो, अट्कुप्वाङ् नुं वयावे अपि. अट् कवर्गः, पवर्गः, आङ् नुम् इत्येतैः यथा सम्भवं मिलितैः व्यवधाने अपि नस्य नः स्यात् समानपदे. अनुवृत्तिसहितसूत्रम् अट् कुप् वाङ् नुं व्यवाये अपि रषाभ्यां नो नः समानपदे करणं मार्गेण.
किञ्चित् अवगच्छति वा?
अत्र अट् प्रत्याहारः कवर्ग वर्णाः, पवर्गवर्णाः, आङ् नुम् इति वर्णानां मेलनं भवति. तत्र न इति नस्य स्थाने नः आगच्छति इति.
नाम अत्र पश्यन्तु, तत्र अनुवृत्तिसहितसूत्रम् अट् कुप् वाङ् नुं व्यवायेपि इति सूत्रमस्ति. अनन्तरं वृषाभ्यां नो नः समानपदे इति अत्र णत्वप्रकरणं तत्र अष्टमाध्यायस्य चतुर्थपादे तत्र प्रथमं सूत्रं तस्मात् आरभ्य नवत्रिंशत्तमं सूत्रं पर्यन्तं तत्र सर्वत्र प्रत्येकस्मिन् सूत्रे रसाभ्यां नो नः समानपदे इति वानुमानम् आगच्छति. अपि च अट्कुप्वाङ् नुं विवायपि अपि आगच्छति. तर्हि अत्र पश्यन्तु, अत्र रसाभ्यां नो नः समानपदे इति वदति यत् एकस्मिन् पदे यदा निमित्तं रेफः अथवा षकारः अस्ति तस्य साक्षात् अनन्तरं नकारः अस्ति चेत् तस्य नकारस्य स्थाने मूर्धन्य अणकारः भवति. किन्तु द्वितीयसूत्रं किं वदति? यदि मध्ये अट् प्रत्याहारः, कवर्गः, पवर्गः, आङ् उपसर्गः, नूम् अनुस्वरः इति मध्ये यावन्तः स्वरा वर्णाः सन्ति एतेषु तथापि भवति इति सूत्रद्वयमस्ति. इदानीं तृतीयं सूत्रं पश्येम केवलम् उदाहरणरूपेण. अस्तु, इति एतावत् तत्र स्पष्टं स्यात्. करणम् अत्र करणं पत्र रेफा अस्ति साक्षात् अनन्तरं. अस्तु, रेश्मीभगिनी वदतु, तत्र मध्ये कः वर्णः अस्ति? रेफनकारयोः रेफनकारयोः मध्ये कः वर्णः?
रेफनकारयोः मध्ये अकारः.
सत्यं, बहु समीचीनमस्ति. अकारः अस्ति, अकारः अस्ति. अत्र रसाभ्यां नो नः समानपदे अत्र नकारस्य अणत्वं न भवति तेन सूत्रेण, यतोहि मध्ये अकारः इति व्यवधानम् अस्ति. किन्तु अट् कुप्वाङ् नुं युवायेपि इति सूत्रेण इदानीम् अणत्वं साधयामः. मध्ये अकारः, नाम अकारः अट् प्रत्याहारे अस्ति, अतः अणत्वं भवति. तत्र अट् प्रत्याहारे कश्चन वर्णः मध्ये अस्ति चेदपि अणत्वं भवति. समीचीनम्, अस्तु. तर्हि बालसुब्रह्मण्यं महोदय तत्र अग्रे पठति वा? स्टार् सिक्स् नोदयतु महोदय. स्टार् सिक्स्. अस्तु, भागवमहोदय तत्र स्टार् सिक्स् नोदयतु कृपया. अस्ति वा? अस्तु, विद्याशङ्करमहोदय तत्र स्टार् सिक्स् नोदयतु.
नमस्ते महोदय, श्रूयते वा?
हा, श्रूयते.
अस्तु, भार्गव महोदय अत्र. प्रातिपदिकान्तनुं विभक्तिषु च समासप्रसङ्गे पूर्वपदस्य निमित्तात् परस्य येषु स्थितस्य नस्य णो वा स्यात्. अनुवृत्तिसहितसूत्रं पूर्वपदात् रसाभ्याम् अट् कुप्वाङ् नुं व्यवायेपि नोणः प्रातिपदिकान्तनुं विभक्तिषु वा, उदाहरणार्थं व्रीहि वापिणौ, व्रीहि वापिनौ, अथवा व्रीहि वापिनौ इत्यस्य अर्थं किञ्चित् क्लिष्टकरमस्ति, परन्तु प्रयासं करोमि.
अस्तु, पठतु एकवारं पुनः.
समासप्रसङ्गे पूर्वपदस्य निमित्तात् परस्य येषु स्थितस्य नस्य णो वा स्यात् इत्युक्ते यदि समासः यदि कोऽपि समासः अस्ति चेत् तस्मिन् सन्दर्भे यदि पूर्वपदे निमित्तम् अस्ति, रसाभ्यां निमित्तम् अस्ति, तर्हि परस्य शब्दस्य अपि नस्य णः भवति वा? तादृशं किमपि अस्ति वा?
हा, पूर्वपदे निमित्तम् अस्ति चेत् अत्र अत्र किमस्ति, अत्र पूर्वपदमस्ति परपदमस्ति. इदानीं रसाभ्यां नो नः समानपदे इति समानपदे इति उक्तमस्ति खलु, समानपदे. तर्हि अनेन सूत्रेण यद्यपि अट् कुप्वाङ् नुं व्यायपि इति अपि अस्ति, तथापि समानपदे इति नास्ति अत्र. नाम व्रीहि वापिनौ इति तत्र एकमेव पदमिति नास्ति. यत्र पदस्य खण्डनं न भवितुमर्हति तत्र समानपदमिति वदामः. एकस्मिन् पदे यत्र खण्डनं न भवति, अत्र खण्डनं भवितुमर्हति. विग्रहवाक्यं तु अस्ति एव तस्य. अतः यद्यपि समानपदम् इति प्रसङ्गः नास्ति, तथापि अनेन सूत्रेण विकल्पेन वा स्यात् वा इति विकल्पेन तत्र नूनः रसाभ्यां नूनः अट् कुप्वाङ् नुं व्यवायेपि इति भवति. केचन वर्णाः मध्ये सन्ति ते च तत्र निमित्तम् अस्मिन् व्रीहि वापिनौ इति अस्मिन् पदे तत्र निमित्तं किं?
व्री
रेफः,
तस्मिन् वर्णे रेफः अस्ति,
रेफः अस्ति. तत्र नैमित्तिकं किं, फलं किं?
रसाभ्यां नो नः समानपदे
फलं नाम तत्र नकारः अस्ति वा? नकारः
नकारः अस्ति, अन्ते अस्ति.
तर्हि रेफः अपि अस्ति, नकारः अपि अस्ति, समानपदं तु नास्ति, किन्तु केचन वर्णाः रेफः तत्र पूर्वपदे अस्ति, तर्हि नकारः परपदे अस्ति. व्रीहि वापिन् व्रीहिति व्रीहि अपि च वापिन् तत्र पदद्वयमस्ति खदं कृत्वा खन्दनं कृत्वा. हा किन्तु मध्ये यावन्तः वर्णाः सन्ति यदि वयम् इदानीम् अट्कुप्वाङ् नुं व्यवायपि इति परिशीलयामः तत्र सर्वे वर्णाः तेषु अन्तर्गताः. अतः विकल्पेन अनेन सूत्रेण समासप्रसङ्गे विकल्पेन भवति. अतः व्रीहिवापिनौ व्रीहि वापिनौ इति अस्ति. अनेन तत्र नाम तत्र बहूनि सूत्राणि सन्ति, चत्वारिंशत् सूत्राणि सन्ति, नाम णत्वं नाम बहवः नियमाः सन्ति, कुत्र कुत्र भवति, कुत्र कुत्र न भवति, कुत्र कुत्र विकल्पेन वा भवति इति बहवः नियमाः सन्ति. तत्र सर्वत्र रसाभ्यां नूनः समानपदे आगच्छति, आगत्य उपविशति यथा अत्र. यथा अत्र रसाभ्यां नूनः इति पद इति सर्वाणि पदानि अत्र समानपदम् इति समानपदे इति अस्य प्रसङ्गः अत्र नास्ति अतः न आगच्छति. किन्तु वृषाभ्यां नूनः रसाभ्यां नूनः इति आगच्छति, अट्कुप्वाङ् नुं व्यवायपि अपि आगच्छति इति. अनेन तत्र अन्यत् उदाहरणम् अस्माभिः दृष्टं तत्र नत्वप्रकरणस्य.
नाम महोदय एकः प्रश्नः अस्ति, यदि रेफस्य अनन्तरम् अपि च नस्य नकारस्य पूर्वं यदि कोऽपि कमपि पदम् अस्ति अपि च तं पदम् अट्कुप्वां नुं मध्ये नास्ति, यदि एकमपि तादृशं पदम् अस्ति चेत् नस्य णः न भवति वा?
पदम् अथवा नाम वर्णः अस्ति वा?
वर्णः क्षम्यतां महोदय, वर्णः.
तर्हि तत्र न भवति. यथा तत्र तकारस्य तथ न मूर्धन्य टठ डठण तत्र चच चय इति एषु कश्चन एकः अपि वर्णः मध्ये अस्ति चेत् न भवति.
ओ अस्तु,
इति नियमः. इदानीं तत्र चत्वारिंशत् सूत्राणि सन्ति, बहुत्र इति नियमः अस्ति, किन्तु यत्र किञ्चन नाम कानिचन नामानि सन्ति यत्र विशिष्ट यत्र न भवति स्म भवति, कुत्र कुत्र भवति इति बहूनि सूत्राणि सन्ति. किन्तु मूलम् इदानीम् अस्माभिः परिशीलितमस्ति, यदि णत्वप्रकरणम् अवलोकयामः क्रमेण सर्वाणि सूत्राणि अवलोकयामः तत्र सौलभ्यमस्ति. नाम यथा द्वित्वप्रकरणं वयं परिशीलितवन्तः, अत्र चत्वारिंशत् सूत्राणि सन्ति इदानीं न कुर्मः, किन्तु तथा पश्यामः चेत् तत्र सौकर्यमस्ति क्रमेण दर्शनेन. एकमेव कार्यमस्ति, यत्र आरम्भे वयं दृष्टवन्तः तत्र पाकशाला यथा अस्ति तत्र पाकस्य कृते यावत् सामग्रीः अपेक्षितमस्ति सामग्री तत्र सर्वं तत्र आयोजितमस्ति. एकस्मिन् पात्रे एकमस्ति लवणमस्ति, अपरस्मिन् पात्रे तैलमस्ति एवं रीत्या प्रकरणं दीयते पानेन. अस्तु, समीचीनमस्ति, अग्रे सरेम. इदानीं पुस्तकमपेक्षितमस्ति, पश्येम अत्र क्रमेण पश्येम. तर्हि यत्र यत्र प्रश्नः भवति तत्र अवश्यं वक्तव्यमस्ति. अत्र अस्माकम् अष्टाध्यायी सूत्रपाठः मातुः पुस्तकं पुरतः भवतु. इदानीम् अष्टाध्याय्यां यावत् अस्माभिः अवलोकितम् एतावता तत्र किञ्चित् इतोपि द्रक्ष्यामः. यत्र अस्माभिः अस्माकं स्पर्शः एतावता न जातः यथा प्रातिपदिकात् यत्र सुबन्तपदानि निर्मितानि भवन्ति, तत्र अस्माकं परिशीलनं न जातम्, अतः किञ्चित् कश्चन स्पर्शः भविष्यति, किन्तु अस्माकम् अवधानं यत्र वयम् अधीतवन्तः तत्र इतोपि भविष्यति अत्र. तर्हि अत्र इदानीं सप्तत्रिंशत्तमे पुटे सर्वमारभ्यते. पश्यतु तत्र प्रथमाध्यायः, अथ प्रथमाध्याये प्रथमपादः इति अस्ति. अत्र प्रथमं सूत्रं किं, बालसुब्रह्मण्यं महोदय तत्र अस्ति वा महोदय?
अहम् अस्मि, पूर्वं म्यूट् करणसमये.
हा, नास्ति चिन्ता, हा अहं जानामि स्म. पठतु प्रथमं सूत्रं.
प्रथमसूत्रं वृद्धिराचै, वृद्धिरादैच्.
हा, वृद्धिरादैच्, हा इति तत्र कीदृशसूत्रमस्ति? नाम वयं जानीमः यत् षड्विधा षड् प्रकारकसूत्राणि सन्ति, अत्र कीदृशसूत्रमिति नाम कीदृशं कार्यम् अत्र?
संज्ञासूत्रं,
वृद्धिसंज्ञा. संज्ञासूत्रमस्ति नाम वृद्धिः नाम इत्युक्ते कः इति अत्र उच्यते. हा, द्वितीयं सूत्रं पठतु.
अदेङ्गुणः, अदेङ्गुणः
कीदृशकार्यमस्ति?
गुणसम्बन्धसंज्ञासूत्रमेव.
हा, संज्ञासूत्रमस्ति नाम आधिक्येन तत्र प्रथमाध्याये आधिक्येन बहूनि तत्र संज्ञासूत्राणि सन्ति. नाम यः कोऽपि नूतनविषयः आरभ्यते यस्मिन् कस्मिन्नपि दर्शनशास्त्रे, ये जनाः अस्माकं न्यायवर्गे सन्ति तत्र आरम्भे सर्वम् उच्यते. नाम द्रव्यं नाम किं, गुणः नाम कः इति सर्वम् आरम्भे उच्यते. तर्हि संज्ञासूत्राणि केवलं प्रथमाध्याये सन्ति इति नास्ति, किन्तु आधिक्येन प्रथमाध्याये, द्वितीयाध्याये च. अत्र तृतीयं सूत्रं पठतु महोदय.
इको गुणवृद्धि,
इको गुणवृद्धि, अत्र अस्माकं परिचितसूत्रमस्ति, किन्तु अस्तु, अखिला भगिनी तत्र महोदय जानाति वा नाम अस्मिन् किम् अनेन किं भवति?
परिभाषा इति न, न,
अखिला भगिनी साहाय्यं करोति वा?
आं, परिभाषासूत्रम् इत्युक्ते यत्र नियमः नास्ति तत्र एतत् सूत्रम् आगत्य तत्र नियमं करोति. इत्युक्ते तत्र इकः अस्ति चेत् तत्र गुणवृद्धिः इति तत्र नियमं कारयति एतत् सूत्रं.
तर्हि इको गुणवृद्धिः इति सूत्रं किं वदति इति चेत्, यत्र गुणः अथवा वृद्धिः विधीयते अपि च कस्य स्थाने विधीयते इति यस्मिन् कस्मिन्नपि सूत्रे न उक्तं तत्र एकः स्थाने इति अत्र परिभाषासूत्रम् आगत्य सूचयति. वयं दृष्टवन्तः अपि पूर्वं, यत्र गुणः अथवा वृद्धिः सावधातुगाढधातुयोः इति, तत्र कस्य स्थाने गुणकार्यं भवति सावधातुगाढधातुयोः इति, तत्र इको गुणवृद्धिः आगत्य सूचयति यत् एकः स्थाने. हा, तर्हि तस्य कार्यं बहुत्र भवति. परिभाषासूत्रं यदि एकाकी किमपि कार्यं नास्ति, इको गुणवृद्धिः तत्र किमपि कार्यं साधयितुं न शक्नोति, तत्र सहायकं सूत्रमस्ति. तर्हि प्रथमाध्याये संज्ञासूत्राणि सन्ति अपि च परिभाषासूत्राणि सन्ति इति बहु किमपि तादृशं इदानीं नाम परिचितसूत्राणि वयं किञ्चित् द्रक्ष्यामः, यतोहि एतावता वयं बहूनि सूत्राणि वयं दृष्टवन्तः. आश्चर्यं भवति भवतां दृष्ट्वा. तर्हि इदानीम् अग्रे किङ्गेति च इति विद्याशङ्करमहोदय तत्र आगच्छति, तत्र स्मर्यते वा अत्र किङ्गेति च इति कीदृशसूत्रमस्ति?
किं न स्मरामि महोदय. विधिसूत्रं वा
हा नाम किङ्चिच्छा इति किं कार्यम् अस्ति, किं कार्यं भवति? कीदृशसूत्रमिति भिन्नप्रश्नः, किं कार्यं साध्यते इति भिन्नप्रश्नः।
तत्रापि
नाम कीदृशं कार्यं भवति अनेन सूत्रेण इति दृष्ट्वा वयं अवगन्तुं शक्नुमः यत् कीदृशसूत्रमस्ति, कीदृशकार्यमस्ति। शान्तिभगिनी साहाय्यं करोति वा?
न महोदय,
बाधकसूत्रमस्ति। तर्हि कः उक्तवान्, वेङ्कटेश महोदय?
आमां महोदय, इकः गुणवृद्धिः न भवति, इकः गुणवृद्धिः न भवति, यः प्रत्ययः कित्वा कित्वा मित्वा अस्ति चेत् तत्र गुणवृद्धिः न भवति इति।
बहु समीचीनमस्ति। तर्हि अनेन गुणः वृद्धिः च निषिध्यते, तत्र अतः निसर्गसूत्रमस्ति। निसर्गसूत्रं तत्र षट्सु षट्सु प्रकारेषु कीदृशसूत्रमस्ति, कीदृशकार्यमस्ति?
विधिसूत्रमस्ति,
हा विधिसूत्रमस्ति, बहु सम्यक् अस्ति महोदय, विधिसूत्रमस्ति। तर्हि न केवलं संज्ञासूत्राणि, न केवलं परिभाषासूत्राणि, तत्र केचन कानिचन विधिसूत्राणि अपि सन्ति। वस्तुतः इदं न केवलं विधिसूत्रमस्ति, अपि तु अत्र यतोहि कित् ङित् इति उक्तमस्ति, कित् ङित् इति नाम कित् इति प्रत्ययस्य नाम अस्ति, कित् ककारः इत्यस्य सः इति प्रत्ययस्य नाम, ङकारः इत्यस्य सः इति प्रत्ययस्य नाम, प्रत्ययस्य नाम नाम अत्र यत्र प्रत्ययः परे अस्ति तत्र कीदृशं कार्यमस्ति, ततः अग्रे किमपि वक्तुं शक्नुमः, न केवलं निषेधकसूत्रमपि विधिसूत्रं, किन्तु कीदृशं कार्यमस्ति यत्र प्रत्ययः परे अस्ति, प्रत्ययः निमित्तमस्ति। कोऽपि साहाय्यं करोति वा?
लोपः न भवति वा? लोपः भवति,
पुनः
लोपः भवति इति वा?
न न, अत्र अत्र लोपः इति न, नाम यत्र यत्र प्रत्ययः परे अस्ति तत्र यत् कार्यं विधीयते तस्य कार्यस्य नाम अङ्गकार्यम् इति वयं परिशीलितवन्तः पूर्वं, खलु? नाम अङ्गकार्यं वयं जानीमः यत्र परे प्रत्ययः अस्ति, तस्मात् पूर्वं यावत् अस्ति तस्य नाम अङ्गम्। तर्हि अङ्गकार्यं वस्तुतः तत्र अङ्गस्य इति एकं सूत्रमस्ति, षष्ठाध्यायस्य चतुर्थपादस्य प्रथमं सूत्रमस्ति अङ्गस्य, अङ्गस्य इत्यस्य अधिकारः भवति षष्ठाध्यायस्य चतुर्थपादस्य प्रथमसूत्रात् आरभ्य आसप्तमाध्यायम् इति अङ्गकार्यं तत्र अस्ति। किन्तु अत्र वयम् इदानीं वयं पश्यामः यत् केवलं तत्र इति न, अन्यत्र कुत्रचित् अङ्गकार्यमपि भवति, यद्यपि अङ्गस्य इति सूत्रस्य अधिकारे न स्यात्। अत्र किङ्गति च इति प्रथम इदानीं अष्टाध्यायाः पञ्चमसूत्रमस्ति इति अङ्गकार्यमस्ति, यतोहि कित् ङित् इति प्रत्ययस्य नाम। तर्हि गुणनिषेधः इति यत्र कित् प्रत्ययः परे अस्ति, ङित् प्रत्ययः अस्ति तत्र, ङित् प्रत्ययः तत्र निषिध्यते इति विधिसूत्रमस्ति, अपि च किम् अङ्गकार्यमस्ति। अस्तु, बहु समीचीनमस्ति। इदानीं अग्रे शान्तिभगिनी अग्रे संयोग तत्र सूत्रं पठतु, तत्र नूतनसूत्रमस्ति किन्तु वयं परिशीलयितुं शक्नुमः तत्र तत्र सप्तमं सूत्रं
सप्तमं सूत्रमस्ति हलोनन्तराः संयोगः.
भवती अनुमानं कर्तुं शक्नोति अत्र किमस्ति? किञ्चित् वक्तुं वदति वा?
महोदय श्रूयते वा?
हा श्रूयते.
हलो अनन्तराः संयोगः विधायकसूत्रम् अस्ति अत्र.
अत्र अत्र किं किं विधीयते?
किं विधीयते
अत्र माता? अत्र माता किञ्चित् नाम सङ्केतं ददाति. अत्र किं लिखितमस्ति तस्य उपरि? सूत्रस्य उपरि किं लिखितमस्ति?
संयोगसंज्ञा.
संयोगसंज्ञा तर्हि किं 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 कार्यम् अत्र?
संयोगः एव.
नाम संज्ञासूत्रमस्ति. संज्ञा संज्ञा नाम संयोगः इति नामकरणमस्ति. नाम विधीयते इति वक्तुं शक्नुमः. विधिसूत्रं नास्ति अत्र, संज्ञासूत्रमस्ति. संयोगः नाम कः इति, यत्र हल् वर्णद्वयमस्ति, द्वयोः हल् वर्णयोः मध्ये किमपि नास्ति, तत्र संयोगः इति उच्यते. इति नामकरणमस्ति. इदानीम् अग्रे पश्यन्तु सर्वे. सवर्णसंज्ञा नवमं सूत्रं, तुल्यास्य प्रयत्नं सवर्णम् इति. सवर्णं नाम यत्र मुखे स्थानानि सन्ति, प्रयत्नानि सन्ति, तत्र तत्र समानमस्ति तुल्यं. प्रयत्नः समानः, अपि च स्थानं समानं, तर्हि सवर्णं सावर्ण्यम् अस्ति इति. अग्रे महान् विषयः अस्ति, तत्र अग्रे वयं किञ्चित् इतोपि वक्ष्यामः. किन्तु सवर्ण शब्दः अस्माभिः श्रुतः पूर्वमपि. तर्हि अत्र तत्र संज्ञासूत्रमस्ति, तुल्यास्य प्रयत्नं सवर्णम् अस्तु. अनन्तरम् अग्रे पश्येम. अत्र विंशतितमं सूत्रं घुसंज्ञा, दा धा ध्वधाप् इति सूत्रमस्ति. अत्र यत्र दा अथवा धा अस्ति, तत्र केचन धातवः सन्ति. प्रसिद्धधातुद्वयमस्ति, दा धातुः ददाति, धा धातुः दधाति. अत्र तेषां किञ्चन नाम अस्ति घूसंज्ञा. ते तादृशधातवः, तेषां नाम अस्ति घूसंज्ञा. अनन्तरं पश्यन्तु, संख्यासंज्ञा अस्ति, बहुगण इत्यादयः तत्र संख्या. एवं केवलमेव आस्वादः इति भवतु अत्र, क्तवतु अत्र, तत्र षष्ठविंशतितमं सूत्रमस्ति, षड्विंशतितमं सूत्रमस्ति. तत्र क्त क्तवतु निष्ठा. पश्यन्तु, क्त नाम मया कार्यं कृतं, मया लेखनी दृष्टा इति, कृतं दृष्टा इति क्तान्तरूपाणि सन्ति. अनन्तरं क्तवतु इति, अहं गतवान् दृष्टवान् इति. तत्र यत्किमपि पदं, तत्र क्तप्रत्ययः क्तवतु प्रत्ययः, द्वयोः नाम अस्ति मिलित्वा निष्ठा. निष्ठा इति संज्ञा अस्ति. अग्रे अस्ति सर्वनामसंज्ञा इत्यादयः तत्र संज्ञाः. अत्र अग्रे पश्येम, अग्रिमे पुटे. तत्र अव्ययसंज्ञा, सर्वनामस्थानसंज्ञा, विभाषासंज्ञा, सम्प्रसारणसंज्ञा, परिभाषासूत्राणि इदानीं तत्र संज्ञासूत्राणि. इदानीं परिभाषासूत्रम् अत्र इदानीं हेमा भगिनी अस्ति वा? स्टार् सिक्स्.
आं महोदय.
हा, अत्र तत्र षट्चत्वारिंशत्तमं सूत्रं पठतु. तत्र
आद्यान्तौ तर्कितौ.
अत्र कीदृशसूत्रमस्ति? वदतु वदतु, तत्र कीदृशकार्यमस्ति?
अर्थं पूरण पूरयति. आदौ यदि तकारः अस्ति वा अकारः अस्ति, कुत्र भवितव्यम् इति वर्णयति. आदि आर् अन्तौ.
बहु समीचीनमस्ति. यत्र यत्र आगमः अस्ति, यत्र आगमः आयाति, यथा इडागमः, यत्र इडागमः अस्ति, अत्र वयं परिशीलितवन्तः इट् इति आगमः, तत्र टकारः इत् संज्ञा भवति, अतः आद्यन्तौ टकितौ इति सूत्रेण तत्र आदौ भवति, प्रत्ययस्य आदौ भवति खलु, आद्यन्तौ टकितौ इति सूत्रेण. अस्तु, द्वितीयं सूत्रं पठतु अग्रिमम्. तत्र वयम् अपि दृष्टवन्तः इति अहं मन्ये, मिदच्छोन्त्यात् परः. मिदच्छोन्त्यात् परः अतीनेन तत्र यस्य मकारः इति यस्य सः, तस्य तादृश भागस्य तत्र पदस्य मध्ये न आदि न वा अन्ते, न आदौ न वा अन्ते, अपि तु मध्ये भवति मिदच्छोन्त्यात् परः इति सूत्रेण. केचन एवं सन्ति ये मध्ये आगच्छन्ति मिदच्छोन्त्यात् परः. अनन्तरं अस्तु भगिनि, तत्र स्टार् सिक्स् इति नोदयतु नोदयतु कृपया, स्टार् सिक्स्. धन्यवादः. अत्र अग्रे अस्ति षष्ठीस्थाने योगा. षष्ठीस्थाने योगा इत्यनेन यत्र षष्ठीविभक्ति, वयं जानीमः षष्ठीविभक्तिः इत्यस्य अर्थः कः, कोऽपि वदतु सूत्रेषु?
स्थाने
खलु, अनेन अहं न उक्तवान् तस्मिन् समये, किन्तु तदर्थं सूत्रमस्ति अत्र, परिभाषासूत्रं. यत्र षष्ठीविभक्तौ किञ्चन पदमस्ति कस्मिंश्चित् सूत्रे, अनेन सूत्रेण जानीमः यत् षष्ठीस्थानयोगा इति सूत्रेण, षष्ठी इत्युक्ते स्थाने, अनेन सूत्रेण. अनन्तरं स्थानेन्तरतमः कदाचित् यथा इको यनचि, एकः स्थाने यन्, एकः स्थाने यन् भवति, किन्तु यन् प्रत्ययः एकः स्थाने यदा नाम तत्र गतिः गत्यतः यत्र ईकारस्य स्थाने यकारः भवति यन् प्रत्याहारे इति अस्तु, इति योगः अतः तत्र इति ईकारस्य स्थाने यन् प्रत्याहारे तत्र चत्वारः वर्णाः सन्ति, तेषु यन् प्रत्याहारेषु तत्र कः आगच्छति इति अनेन सूत्रेण स्थानेन्तरतमः नाम इकारः तस्य यण् प्रत्याहारे ये वर्णाः सन्ति तत्र य हयवर् तत्र यवर ल इति यण् तत्र तेषु इकारस्य स्थानं तत्र यकारस्य स्थानं तत् द्वयोः साम्यमस्ति इति कृत्वा वकारः रकारः लकारः न अपि तु यकारः आगच्छति तत्र इकारस्य स्थाने इको यनचि स्थानेन्तरतमः इत्यस्य साहाय्येन जानीमः. अतः नाम अत्र पारिभाषिकशब्दाः तत्र संज्ञासूत्राणि तत्र परिभाषासूत्राणि इति आधिक्येन अत्र सन्ति. अत्र यदि क्रमेण भवन्तः पश्यन्ति एतत् नाम तस्य इदं पुस्तकं मम पुस्तकम् इति करणार्थम् अस्मिन् पुस्तके लेखितुमपि शक्नुवन्ति, तत्र अधोरेखां स्थापयितुं शक्नुवन्ति यत्र यत्र परिचितसूत्राणि सन्ति. नाम इदं पुस्तकं मम इति ममता इति भावना भवेत्, नाम परिचयः सम्यक् रूपेण भवतु इति अस्ति इति. तर्हि प्रथमाध्याये एतत् सर्वं भवति, अपि च तत्र पश्यन्तु, तत्र अस्माकम् तत्र एकचत्वारिंशत्तमेपुटे चत्वारिंशत्तमेपुटे तत्र प्रथमाध्यायस्य द्वितीयपादः अस्ति. तत्र आरम्भे पश्यन्तु के कानि कानि सूत्राणि सन्ति. प्रथमाध्यायस्य क्षम्यतां द्वितीय न तृतीयपादः नाम बहु सर्वं तत्र परिशीलयितुं समयः नास्ति, किन्तु अत्र प्रथमाध्यायस्य तृतीयपादे तत्र एकचत्वारिंशत्तमे पुटे अस्ति धातुसंज्ञा भुआदय भुआदयो धातवः इति सूत्रम् अस्माकं परिचितमस्ति. अनन्तरम् इत् संज्ञापकरणं पश्यन्तु, उपदेशे जनासिक इत् हलन्त्यं तत्र सर्वमस्ति खलु, परिचितसूत्राणि सन्ति खलु. अपि च तस्मात् पूर्वं यदि पश्यन्तु, तस्मात् पूर्वं यत् तत्र षष्ठं सूत्रमस्ति अदर्शनं लोपः, नाम लोपः नाम कः इत्यस्य कृते तत्र दत्तमस्ति. बहु किमपि अपि ज्ञातुं शक्नुवन्ति यदि तत्र मध्ये मध्ये पश्यन्ति. अस्तु, इतः अग्रे पश्येम. इदानीं प्रथमाध्यायः इति आधिक्येन संज्ञासूत्राणि, अतः इतः अग्रे सरेम, नो चेत् समापयितुं न शक्ष्यामः. ततः अग्रे यदि पश्यामः इदानीं द्वितीयाध्यायः अपि आधिक्येन तथा अस्ति, नाम परिभाषासूत्राणि संज्ञासूत्राणि अन्यत् बहु किमपि अस्ति, किन्तु इदानीं मास्तु, यतोहि क्रमेण ज्ञास्यामः. इदानीं तृतीयाध्यायः अस्माकं मुख्य अध्यायः अस्ति. इदानीं त्रिपञ्चाशत्तमे पुटे पश्यन्तु तृतीयाध्यायस्य प्रथमपादः. अत्र अत्र सुब्रह्मण्यमहोदय तत्र पठितुमिच्छति वा, महोदय अस्ति वा?
आं महोदय, श्रूयते वा?
हा, तृतीयाध्याये प्रथमपादः.
प्रत्ययाधिकारः प्रत्ययः इत आरभ्य पञ्चमाध्यायपरिसमाप्ते अधिकारो यम्.
अस्तु अस्तु, इदं सम्यक्तया पठतु एकवारं. नाम
इत आरभ्य पञ्चमाध्यायपरिसमाप्तेरधिकारयम्
आरभ्य आपञ्चमाध्यायपरिसमाप्तेः
अधिकारः अयं.
प्रत्ययः, तर्हि तस्य अर्थः कः? इतः आरभ्य आपञ्चमाध्यायपरिसमाप्तेः अधिकारः अयम्. अयं नाम कः?
प्रत्ययः.
प्रत्ययः, प्रत्ययः अस्य सूत्रस्य अधिकारः कुत्र पर्यन्तम्?
पञ्चमाध्यायपरिसमाप्तः.
तर्हि तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये यत् किमपि आगच्छति तस्य नाम अस्ति प्रत्ययः. यावत् यत्किमपि विधीयते तस्य नाम भवति प्रत्ययः. नाम अस्तु, अग्रे पठतु महोदय.
अत्र प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते.
तस्य नाम, तस्य अर्थः कः?
प्रत्ययशब्दः संज्ञात्वेन अधिक्रियते. प्रत्ययः संज्ञा नाम भवति,
नामकरणमस्ति प्रत्ययः. नाम यावद् विधीयते, अत्र अधिकारः कीदृश अधिकारः? संज्ञा अधिकारः. नाम यत्किमपि विधीयते तृतीयाध्याये, चतुर्थे अध्याये, पञ्चमाध्याये यावत् विधीयते तस्य नाम प्रत्ययः. अष्टाध्याय्यां तृतीयाध्याये चतुर्थाध्याये पञ्चमाध्यायं विहाय प्रत्ययः न कुत्रापि विधीयते. यः कोऽपि प्रत्ययः संस्कृतभाषायां यः कोऽपि प्रत्ययः भवति येषु त्रिषु अध्यायेषु. अग्रे
इत ऊर्ध्वा यः अनुक्रमिष्यन्ते प्रत्ययसंज्ञास्ते वेदितव्याः.
इतः ऊर्ध्वं नाम इतः अग्रे ये अनुक्रमिष्यन्ते प्रत्ययसंज्ञाः ते वेदितव्याः. यत् मया इदानीमेव उक्तं यावत् किमपि विधीयते येषु त्रिषु अध्यायेषु तेषां नाम प्रत्ययः. अस्तु अग्रे.
एतेषु त्रिष्वध्यायेषु धातोः प्रतिपदिकाद् ञन्तादबन्ताच्च प्रत्यया विधीयन्ते.
एतेषु त्रिषु अध्यायेषु धातोः प्रातिपदिकात् ञन्ताबन्ताच्च प्रत्ययाः विधीयन्ते. तर्हि अत्र तृतीयाध्याये धातुभ्यः नाम अयं प्रत्ययः त्रिषु अध्यायेषु भवति खलु प्रत्ययः. तृतीयाध्याये यावन्तः प्रत्ययाः विधीयन्ते ते च सर्वे प्रत्ययाः धातुभ्यः विधीयन्ते. धातुभ्यः तृतीयाध्याये. चतुर्थाध्याये पञ्चमाध्याये च यावन्तः प्रत्ययाः विधीयन्ते ते सर्वे प्रातिपदिकेभ्यः ञन्तात् आबन्तात् नाम स्त्रियां, यत्र स्त्रीलिङ्गे कोऽपि प्रश्नः, यथा नदी अस्ति नद्यां, तत्र सप्तमीविभक्तौ नदी इति नद्यां भवति खलु, तत्र नद्यां तत्र सप्तमीविभक्ति अर्थे तत्र कश्चन प्रत्ययः अस्ति. नदी इत्यस्य अनन्तरं याम् अस्ति, तत्र याम् इति प्रत्ययः अस्ति, नदी इति प्रातिपदिकमस्ति. तृतीयाध्याये धातुभ्यः विधीयन्ते प्रत्ययाः तृतीयाध्याये. चतुर्थाध्याये पञ्चमाध्याये च प्रातिपदिकेभ्यः सुबन्तेभ्यः बालकात् नद्यात् बालिकायाः तत्र सुन्दरतायाः यत्किमपि भवति तत्र सुबन्तानां विषये तत्र चतुर्थाध्याये पञ्चमाध्याये च प्रत्ययाः. अस्तु अग्रे अखिलभगिनी अग्रे पठति कृपया.
अतः त्रयः अध्यायः इमे प्रत्ययाध्याया इति कथ्यन्ते. अत्र विशेषाः
तर्हि
अत्र एषः त्रय अध्यायाः तत्र प्रत्ययाध्यायः इति वदन्ति. अत्र किमपि विशेषमपि अस्ति. अत्र तृतीय अध्याये प्रथमपादे द्वित्रिंशत् सूत्र इत्यन्तं सनादयः द्वादशप्रत्ययाः सन्ति. एते धातुप्रत्ययाः प्रत्यया इति कथ्यन्ते.
अस्तु अस्तु एकम् इदानीं द्रक्ष्यामः. किन्तु इतः अग्रे नाम इदानीं प्रत्ययः इतः अग्रे तत्र पश्यन्तु अग्रिमे पुटे द्वात्रिंशत्तमं सूत्रमस्ति. किं पठतु कृपया भगिनि.
द्वात्रिंशत् सूत्रमस्ति. सनाद्यन्ता दातवः.
अत्र प्रथमाध्याये वयं दृष्टवन्तः भुवादयो दातवः इति उपदेशावस्थायां द्विसहस्रं ये धातवः सन्ति तेषां धातुसंज्ञा भवति भुवादयो धातवः इति सूत्रेण. किन्तु यदा जिगमिष्यति, गन्तुम् इच्छति इति अर्थे तत्र सनादि तत्र सनन्त धातुः भवति जिगमिषति धातुः भवति. जिगमिषति इति तिङन्तपदमस्ति. तत्र धातुसंज्ञा भवति भुवादयो धातवः इति न, यतोहि जिगमिषति उपदेशावस्थायां धातुः नास्ति, गम् धातुः तत्र अस्ति. किन्तु गम् योगः सन् जिगमिषा इति धातुः तत्र उपदेशे नास्ति. अतः तस्य धातुसंज्ञा भवति अनेन सूत्रेण सनाद्यन्ता धातवः. अस्तु, तत्र पर्यन्तं यानि सूत्राणि सन्ति तेषां संयोजनेन धातुसंज्ञा भवति अनेन सूत्रेण. अस्तु, अग्रे.
एते धातुप्रत्ययाः इति कथ्यन्ते. ततः तृतीय अध्याये तृतीयपादे नवति इत्यन्तं विकरणप्रत्ययाः सन्ति. ततः तृतीय अध्याये चतुर्थपादे षट्सप्ततिः इत्यन्तं कृत् प्रत्ययाः सन्ति. ततः लस्य तृतीय अध्याये चतुर्थपादे सप्तसप्ततिः इत्यारभ्य तृतीय अध्याये चतुर्थपादे द्वादशाधिक एकशतम् इत्यन्तं लादिकारो वर्तते. अत्र तिङ् प्रत्ययाः.
अस्तु, तर्हि अत्र पश्यन्तु, अस्मिन् तृतीयाध्याये इदानीम् एतत् सर्वम् अतीवमहत्त्वपूर्णमस्ति, अतः शनैः शनैः पश्येम. तृतीयाध्याये यद् यद्विधीयते तस्य नाम भवति प्रत्ययः, अपि च यस्माद् विधीयते तस्य नाम धातुः. तृतीयाध्याये अन्यत्र कुत्रापि तादृशी स्थितिः न लभ्यते. तृतीयाध्याये यस्माद् विधीयते तस्य नाम धातुः, यः विधीयते तस्य नाम प्रत्ययः. अपि च तत्र प्रत्ययाः चतुर्विधाः प्रत्ययाः भवन्ति अस्मिन् तृतीयाध्याये. ये प्रत्ययाः विधीयन्ते धातुभ्यः ते चतुर्विधाः. प्रथमतया धातुप्रत्ययाः सन्ति. अत्र द्वादशधातुप्रत्ययाः सन्ति इति अग्रे इदानीं द्रक्ष्यामः. ततः अग्रे विकरणप्रत्ययाः विधीयन्ते. ततः अग्रे कृत्प्रत्ययाः विधीयन्ते. अनन्तरं तिङ्प्रत्ययाः विधीयन्ते. तर्हि धातुप्रत्ययाः, विकरणप्रत्ययाः, कृत्प्रत्ययाः, अपि च तिङ्प्रत्ययाः सर्वे केवलं तृतीयाध्याये भवन्ति. अपि च क्रमेण प्रथमतया धातुप्रत्ययाः द्वादश, अनन्तरं यावन्तः विकरणप्रत्ययाः संस्कृतभाषायां भवति ते विधीयन्ते क्रमेण, अनन्तरं कृट्प्रत्ययाः सर्वे कृट्प्रत्ययाः विधीयन्ते, अनन्तरम् अन्ते तिङ्प्रत्ययाः सर्वे विधीयन्ते इति अस्ति. इति स्थितिः अस्ति. तर्हि अत्र पश्येम, इदानीम् अग्रिमे पुटे पश्येम अत्र सनादयो धातुप्रत्ययाः. अत्र सन् प्रत्ययः अस्ति, सन् अस्ति. ततः अग्रे क्यच्, अनन्तरं काम्यच्, पश्यन्ति काम्यच्, क्यङ्, क्यश्, क्यच् इति क्रमेण सन्ति. निङ् अणिच्, यङ् णिच्, यक् आय, इयङ् इति आदयः तत्र अन्तपर्यन्तं. तत्र एतेषां योजनेन नूतनधातुः निष्पद्यते सनाद्यन्ताः धातवः इति सूत्रेण. अत्र द्वादशप्रत्ययाः सन्ति. अत्र द्वात्रिंशत्तमसूत्रं पर्यन्तं द्वादश धातुप्रत्ययाः सन्ति. एतेषु पञ्चप्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते. वस्तुतः प्रातिपदिके भ्यः विधीयन्ते, तत्र क्यङ् क्यच् क्यच् कम्यच् काम्यच् अपि च क्विप् इति पञ्चप्रत्ययाः केवलं प्रातिपदिकेभ्यः विधीयन्ते. अनन्तरं त्रयः प्रत्ययाः एतेषु द्वादशसु त्रयः प्रत्ययः तत्र णिच् निङ् यक् प्रातिपदिकेभ्यः अपि च धातुभ्यः. अनन्तरं ये अवशिष्टाः ते सर्वे यथा सन् यङ् इत्यादयः केवलं धातुभ्यः विधीयन्ते. इदानीम् एकम् उदाहरणं ददामि. अत्र प्रातिपदिकेभ्यः पञ्चानां संयोजनेन क्यङ् क्यच् क्यच् काम्यच् क्विप् इत्येषां संयोजनेन नूतनधातुः निष्पद्यते. उदाहरणं वदामि अत्र पश्यन्तु. अत्र क्यच् सन् अनन्तरं क्यच् अस्ति क्यच् क्यच्. अत्र पुत्रः नाम मम त्रयः पुत्राः सन्ति इति पुत्रशब्दः अस्ति. पुत्रयोगः क्यच् इत्यनेन पुत्रीय इति धातुः अस्ति. पुत्रीय इति धातुः अस्ति. तत्र नाम धातुः इति उच्यते, यतोहि पुत्र इति नाम पदमस्ति, सुबन्तपदमस्ति. तर्हि पुत्रयोगः क्यच् इति पुत्रीय इति नामपदमस्ति, न क्षम्यताम् इति धातुः अस्ति. धातुः केन सूत्रेण? सनाद्यन्ता धातवः. अत्र पुत्रीय इति धातुः अस्ति, तत्र तिप्तश्चि इत्यस्य संयोजनेन पुत्रीयति, पुत्रीयतः, पुत्रीयन्ति. यथा गुरुः छात्रं पुत्र इव आचरति. गुरुः छात्रं पुत्र इव आचरति इत्यस्मिन् अर्थे गुरुः छात्रं पुत्रीयति. गुरुः छात्रं पुत्रीयति इति पुत्रीयति अस्मिन् क्यच् इत्यनेन नूतनधातुः निष्पद्यते. पुत्रयोगः क्यच् पुत्रीय. अनेन एवमेव अनया रीत्या प्रासाद इति तत्र राज्ञः राज्ञः भवति, तस्य राज्ञः गृहं किमिति चेत् तत्र प्रासाद इति पदमस्ति खलु, प्रासाद. तत्र प्रासादयोगः क्यच् इति कुर्मश्चेत् तत्र प्रासादीय इति नूतनधातुः अस्ति. प्रासादीय इति धातुः अस्ति. तत्र भिक्षुः कुट्यां प्रासाद इव आचरति इत्यस्मिन् अर्थे भिक्षुः कुट्यां प्रासादीयति. प्रासादीयति तत्र केचन पञ्चप्रत्ययाः अत्र सन्ति, क्यङ् क्यच् क्यच् काम्यच् क्विप्, ये प्रातिपदिकेभ्यः विधीयन्ते. यदा संयुज्यन्ते ते पञ्च, नूतनधातवः निष्पद्यन्ते. यथा पुत्रीय इति धातुः अस्ति, प्रासादीय इति धातुः अस्ति. अत्र एकं प्रकरणमस्ति, धातु तत्र धातुप्रत्ययप्रकरणमस्ति. अत्र सन् क्यच् काम्यच् इति क्रमेण द्वादश सन्ति, एकस्य अनन्तरम् एकस्य अनन्तरं भवति. हा, तत्र सनाद्यं
तत्र क्यच् काम्यच् क्यङ् क्यश् अस्ति, कुत्र क्विप् कुत्र अस्ति?
क्विप् इति क्विप् इति कुत्र अस्ति? अत्र क्यच् काम्यच् क्यङ् क्यश् इति चत्वारः सन्ति. क्विप् कुत्र अस्ति इति दृष्ट्वा अनन्तरं वदामि, यतोहि अस्मिन् क्रमे न दृश्यते, किन्तु अस्ति अत्र क्विप् अपि अस्ति. अस्ति अत्र कुत्र अस्ति इति अनन्तरं वदामि, किन्तु अयं क्रमः अस्ति. तर्हि अत्र द्वादशधातुप्रत्ययाः सन्ति, इतः अग्रे विकरणप्रत्ययाः आगच्छन्ति. विकरणप्रत्ययाः अत्र त्रयस्त्रिंशत्तमं सूत्रं पश्यन्तु. तत्र किं लिखितमस्ति? अन्य कोऽपि अस्ति वा? पद्मा भगिनी पठति वा? पद्मा भगिनी अस्ति वा? अन्ये के के सन्ति? अन्ये के केचन जनाः आगतवन्तः मध्ये? अस्तु भागव महोदय तत्र पठति वा महोदय
पुष्पमहोदय अस्ति
अस्तु भगिनि पठतु त्रयस्त्रिंशतं सूत्रम् अस्तु समयः न्यूनः अस्ति अतः वदामि अत्र श्यतासि लृलृटौः श्यतासि भगिनी वदामि यतोहि समयः समाप्यमानः अस्ति अत्र श्यतासि लृलृटौः इति सूत्रम् अतः इतः आरभ्य विकरणप्रत्ययाः सन्ति अत्र विकरणप्रत्ययाः कुत्र भवन्ति कुत्र पर्यन्तम् इति चेत् तत्र श्यतासि लृलृटौः इति अग्रे तत्र सावधातुके यक् इति पश्यन्ति तत्र षष्टितमं सूत्रमस्ति सप्तषष्टितमं सूत्रमस्ति सावधातुके यक् तथा अत्र आदुदातुके आदुदातुकप्रकरणे विकरणप्रत्ययाः तत्र पर्यन्तम् इतः आरभ्य सावधातुके यक् इति अस्मात् आरभ्य सावधातुकप्रकरणे तत्र विकरणप्रत्ययाः विधीयन्ते कुत्र पर्यन्तम् इति चेत् अत्र अग्रिमेपुटे नवतमं सूत्रम् अस्ति नवतितमं सूत्रं तत्र समाप्यते नाम नव अष्ट अशीतितमं सूत्रम् इति अन्तिमविकरणप्रत्ययस्य विकरणप्रत्ययः तत्र स्यतासि लृलतोः इत्यस्मात् आरभ्य अत्र पर्यन्तमस्ति अपि च तत्र विकरणप्रत्ययाः द्विधा सन्ति द्विधा विकरणप्रत्ययाः तत्र यक् सवदातक यक् पर्यन्तम् आर्धदातकप्रकरणे सन्ति तत्र सावधातकप्रकरणे अत्र अग्रे पश्यन्तु सावधातकप्रकरणे अत्र शप् सूत्रं किं कर्तरि शप् इति पश्यन्ति अनन्तरं श्यन् इति कस्मिन् गणे भवति वदन्तु दिवादिभ्यः श्यन् दिवादिगणे खलु अनन्तरम् अग्रे श्नुपतयः पश्यन्ति तत्र कस्मिन् गणे अस्ति स्वादिगणे स्वादिभ्यः स्नुः अनन्तरं शप्रत्ययः भवति तुदादिभ्यः शः श्नं प्रत्ययः कस्मिन् गणे रुदादिगणे उप्रत्ययः कस्मिन् गणे
तनादि
तनादिगणे श्नाप्रत्ययः कस्मिन् गणे
क्रियादि
तत्र अतः किमस्ति क्रियादिगणे अतः किमस्ति यत् वयं जानीमः एव धातुगणम् अनुसृत्य रूपाणि भिद्यन्ते कुत्र सावधातुकोपकरणे नाम लट् लोट् लङ् विधि लिङ् खलु लट् लोट् लङ् विधि लिङ् इत्येषु लकारेषु अत्र यतोहि प्रत्येकस्मिन् गणे विकरणप्रत्ययः भिन्नः अस्ति खलु किन्तु अत्र पश्यन्तु तत्र स्यतासि लृलृतोः स्यतासि लृलृतोः इत्यस्मिन् लृट्लकारे अपि च लृङ्लकारे स्या इति विकरणप्रत्ययः भवति स्या सर्वेषां धातूनां कृते स्या सर्वत्र आगच्छति अतः धातुगणमनुसृत्य रूपभेदः न भवति इति कृत्वा इति लृट्लकारे लृङ्लकारे लूट्लकारे अनेन सूत्रेण स्यतासि लृलृतोः इति लृट् लृङ् लूट् अनन्तरम् अग्रिमसूत्रमस्ति सिप् बहुलं लटि इति लेट्लकारः तत्र केवलं वेदे अस्ति लेट्लकारः वेदे अस्ति अनन्तरम् अग्रे लिट् अत्र आम्प्रत्ययः लिट्लकारे अस्ति तत्र अस्मिन् सूत्रे पश्यन्तु लिट् इति लिखितमस्ति लिट्लकारविधायकसूत्राणि अत्र द्विचत्वारिंशत्तमं सूत्रं पर्यन्तम् अनन्तरम् अग्रे लिखितमस्ति छिलि प्रत्ययः छिलि लुङि इति सूत्रं छिलि लुङि इति लुङ्लकारः तर्हि लट् तत्र लृट् लृङ् लूट् लेट् लुङ्कारः लुङ्कारः अत्र आदिदातकप्रकरणस्य अनन्तरं अन्तपर्यन्तं गच्छति. तर्हि आहत्य आहत्य विधि आशीर्लिङ्ग् अपि अस्ति. आशीर्लिङ्ग् अत्र अग्रे अग्रे लभ्यते, किन्तु एते आदिदातकसंज्ञकविकरणपतयः केवलं लृट् लृङ् लूट् लेट् लुङ् अपि च आशीर्लिङ् इति भवन्ति. अनन्तरम् अग्रे विकरणपतयः सन्ति सावधातकसंज्ञकाः. अनन्तरं यत्र धातोः अग्रिमे पुटे यत्र एकनवतितं सूत्रं तत्र धातोः ततः तदनन्तरं पश्यन्तु तत्र कृत्संज्ञा अस्ति, तत्र एकं सूत्रमस्ति कृदतिङ् इति. पश्यन्ति त्रिनवतितं सूत्रं कृदतिङ्. अस्य सूत्रस्य अर्थः कः इति कोऽपि अनुमानं कर्तुं शक्नोति वा? नाम यः कोऽपि प्रत्ययः साक्षात् धातुतः विधीयते, यः कोऽपि प्रत्ययः साक्षात् धातुतः विधीयते अपि च स च प्रत्ययः तिङ् नास्ति चेत् तर्हि कृत् इति कृत्वा केवलं द्विविधा भवति. ये प्रत्ययाः साक्षात् धातुतः विधीयन्ते धातुभ्यः विधीयन्ते ते सर्वे तिङ् अथवा कृत्. यदि तिङ् न सन्ति तर्हि कृत् इति अनेन सूत्रेण कृदतिङ्. यः प्रत्ययः साक्षात् विधीयते धातुतः तिङ् नास्ति चेत् कृत् इति अनेन सूत्रेण जानीमः कृदतिङ्. अनन्तरं तत्र तृतीयाध्यायस्य चतुर्थपादे अत्र अन्ते अनन्तरं विरमाम. अत्र पश्येम यत् अत्र च तृतीय अत्र एकसप्ततितमे पुटे तत्र तृतीयाध्यायस्य चतुर्थपादे सप्तसप्ततितमं सूत्रमस्ति लस्य, पेज् 71, सूत्रं 77 लस्य इति सूत्रमस्ति. ततः आरभ्य अन्तपर्यन्तं, नाम अस्य तृतीयाध्यायस्य अन्तपर्यन्तं तत्र अग्रिमे पुटे अस्ति 117 इति सप्तदशाधिकशततमे पुत्रे सूत्रे तत्र अन्ते अस्ति. तत्र पर्यन्तं तिङ्पतयः सन्ति. लस्य इत्यस्य स्थाने ये यावन्तः तिङ्प्रत्ययाः सन्ति इति अस्मिन् तृतीयाध्याये सर्वे प्रत्ययाः ये धातुभ्यः विधीयन्ते सर्वे आगच्छन्ति अत्र. तर्हि अनेन अस्माकं धातुनिर्माणं भवति, नाम तिङन्तपदं निर्मीयते अथवा कृदन्तपदं निर्मीयते. इदानीं समयः समाप्तः, किन्तु इतः अग्रे किञ्चित् अस्मिन् सप्ताहे किं कुर्वन्तु, अस्मिन् सप्ताहे तत्र प्रथमाध्याये द्वितीयाध्याये तृतीये च अध्याये किं किम् अस्ति इति पश्यन्तु. मनसि भवेत् यत् अस्तु प्रथमाध्याये किं किम् अस्ति, द्वितीयाध्याये किं किम् अस्ति, अपि च विशेषतः तृतीयाध्याये सर्वं स्पष्टं भवेत्. धातुप्रत्ययाः, विकरणप्रत्ययाः, कृत्प्रत्ययाः, तिङ्प्रत्ययाः इति चतुर्विधप्रत्ययाः क्रमेण विधीयन्ते धातुभ्यः तृतीयाध्याये इति. इदानीं विरमाम. तत्र कोऽपि प्रश्नः वा एतावता?
महोदय, किञ्चित् प्रायः असम्बन्धप्रश्नः, परन्तु तत्र प्रत्येकं सूत्रस्य अनन्तरं किमपि सङ्ख्या अस्ति खलु, तत् किं सूचयति?
तत्र सिद्धान्तकौमुद्यां सिद्धान्तकौमुदी इति तत्र केवलं प्रक्रियाग्रन्थः अस्ति. अनेन अष्टाध्याय्यां यः सूत्रक्रमः अस्ति तत्र सिद्धान्तकौमुद्यां पश्यन्तु, तत्र सूत्रसङ्ख्या तत्र क्रमेण भवन्ति वा? क्रमेण तु नास्ति,
क्रमेण नास्ति, तदर्थमेव तत्र प्रश्नः आसीत्.
हा, सिद्धान्तकौमुदी तत्र कोऽपि पागल् हो जायेगा, मत्लब् यु गो क्रेज़ी सिद्धान्तकौमुद्यां. एकदम बहु कठिनम् अस्ति तत्र. तत्र पश्यन्तु, तत्र क्रमेण यत् अष्टाध्यायं यत् अस्ति प्रकरणम्, इदं प्रकरणं न एव लभ्यते, न किमपि लभ्यते तत्र सिद्धान्तकौमुद्यां इति प्रसिद्धग्रन्थः. तत्र केवलं प्रक्रियाग्रन्थः इतस्ततः स्वीकृत्य सूत्राणि स्थाप्यन्ते तत्र, अतः सूत्रसङ्ख्या प्रमाणं भवति. अस्तु अस्तु, तर्हि गृहपाठः सम्यक्तया कुर्वन्तु गृहपाठं. तत्र प्रथमाध्यायः, द्वितीयाध्यायः, तृतीयः, अनन्तरम् इतः अग्रे सरेम.
अस्तु, 1177 पेज् प्रत्ययः कः अस्ति? नास्ति.
कुत्र?
117 पेज्.
न न, सूत्रं न, सूत्रमिति वा? भगिनि, तत्र ईमेल्, तत्र समयः जातः अस्ति, तत्र मह्यं तत्र ईमेल् प्रेषयतु. अत्र 17-100 सूत्रम् इति तत्र पश्यन्तु, तत्र आर्धदातुकसंज्ञकाः तत्र के के सन्ति. अत्र तिङ्प्रत्ययः समाप्यते द्विषश्च, 12-100 पुत्रं सूत्रम् इति तिङ्प्रत्ययस्य विधायकसूत्र अन्तिमसूत्रमस्ति, 12-100 इति. लस्य इति अस्य अधिकारः, लस्य तत्र पर्यन्तमस्ति. अस्तु, सर्वेषां नमस्कारः, धन्यवादः, शुभरात्रिः.
धन्यवादः, शुभरात्रिः महोदय.
धन्यवादः, शुभरात्रिः.